इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः प्रधानमन्त्री नरेन्द्र मोदी अद्य तेलंगाना राज्यं गमिष्यति तत्र सः 13,500,000,000,000 अपि रूप्यकाणाम् अनेकासाम् विकासात्मक परियोजनानां शिलान्यासं करिष्यति अथ अनेकाः परियोजनाः राष्ट्राय समर्पयिष्यति श्री मोदी प्रमुख मार्ग परियोजनानां आधारशिलां स्थापयिष्यति ये हि नागपुरतः विजयवाड़ा आर्थिक वीथिकायाः भागत्वेन सन्ति राष्ट्रिय राजमार्गस्य वारंगलतः खम्मम खण्डं यावत् 88 किलोमीटर मितः सुदीर्घः राजमार्गः समाहितः अस्ति एताः मार्ग परियोजनाः प्रायः 6,400,000,000,000 रूप्यकाणां व्ययेन निर्मास्यन्ते प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां देशस्य आकांक्षी प्रखण्डेभ्यः सप्ताहव्यापिनः विशेष कार्यक्रमस्य संकल्प सप्ताहस्य प्रारम्भं कृतवान् एतस्य उपक्रमस्य उद्देश्यं नागरिकाणां जीवने गुणवत्ता प्रवर्धनं प्रखण्डस्तरीय शासन समुन्नयनं च अस्ति भारतमण्डपे आयोजिते एतस्मिन् समारोहे देशस्य 55 प्रखण्डस्तरीयाः प्रायः 30,000 प्रतिनिधयः भागं गृहीतवन्तः प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वाने अद्य देशे व्यापकस्तरे स्वच्छताभियानं प्रचालयिष्यते प्रधानमन्त्री आह्वानं कृतवान् यत् जनाः महात्मा गांधी जयन्त्यवसरे श्रद्धाञ्जलये अद्य प्रातः 10 एकघण्टां यावत् स्वच्छताभियाने भागग्रहणं कुर्वन्तु इति प्रधानमन्त्रिणः आह्वानं स्वच्छतायै विशालतमः स्वैच्छिक प्रयासः भविष्यति एतद् अभियानान्तर्गतं नगरीय ग्रामीण क्षेत्रेषु 6,40,000 स्थलेषु श्रमदानं करिष्यते केन्द्रीय गृह सहकारिता मन्त्री अमित शाहः अवोचत् यत् प्रशासनं निश्चयति यत् समाजस्य कोऽपि वर्गः देशस्य विकास यात्रायां पश्चवर्ती न स्यात् असौ गतदिने गुजरातस्य गांधीनगरे विविध विकास परियोजनानां शुभारम्भ शिलान्यासानन्तरं एकां जनसभां सम्बोधयति स्म अहमदाबाद नगर निगमस्य अथ अहमदाबाद नागर विकास प्राधिकरणस्य एताः परियोजनाः 16,00,000,000,000 रूप्यकात्मिकाः विद्यन्ते अत्रावसरे गुजरातस्य मुख्यमंत्री भूपेन्द्र पटेलः अपि उपस्थितः अवर्तत मालदीव देशे मोहम्मद मुइज्जु इत्येषः नूतन राष्ट्रपतित्वेन चितः जातः सः द्वितीये अन्तिम चरणात्मके च मतदाने निवर्तमानं राष्ट्रपतिं मोहम्मद सोलीह इत्यमुं पराजितवान् ध्येयं यत् श्री मुइज्जु इत्येषः 54% मतानि प्राप्तवान् यद्यपि एमडीपी इत्येतस्य दलस्य निवर्तमानः राष्ट्रपतिः सोलिहः प्रायः 46% एव मतं प्राप्तवान् चीनदेशे हांगचो एशिया प्रतियोगितासु गतदिने भारतेन स्वर्णपदकद्वयं रजतपदकद्वयं अथ एकं कांस्य पदकं विजितम् 10 स्वर्णपदकं 14 रजतपदकं 14 कांस्यपदकेन सहैव आहत्य साम्प्रतं यावत् 38 पदकानि भारतेन प्राप्तानि इत्थं भारतं पदकतालिकायां चतुर्थे स्थाने अस्ति इति वार्ताः